अथ श्री ब्रह्मांड मोहनाख्यम दुर्गा कवचम श्री गणेशाय नमः। नारद उवाच भगवन् सर्वधर्मज्ञे सर्वज्ञान विशारदो ब्रह्मांड मोहनम नाम प्रकृति कवचम वद। नारायण उवाच श्रृणु प्रवक्ष्यामि हे वत्स कवचम च सुदुर्लभम् श्रीकृष्णनैव कथितम् कृपया ब्रह्मणि पुरा। ब्रह्मणा कथितम् पूर्वम् धर्माय जानवी तटे धर्मेण दत्तम् मह्यम् च कृपया पुष्करी पुरा। त्रिपुरारिश्च यद्धृत्वा जघान त्रिपुरम् पुरा ममोच ब्रह्मा यद्धृत्वा मधुकैटभयोर्भयात्। सञ्जहार रक्तबीजम् यद्धृत्वा भद्रकालिका यद्धृत्वा हि महेन्द्रश्च सम्प्राप कमलालयाम्। यद्धृत्वा च महायोद्धा बाणः शत्रुभयङ्करः यद्धृत्वा शिवतुल्यश्च दुर्वासा ज्ञानिनाम् वरः। ओम् दुर्गेति चतुर्थ्यन्तः स्वाहान्तो मे शिरोऽवतु मन्त्रः षडक्षरोऽयम् च भक्तानाम् कल्पपादपः। विचारो नास्ति वेदे च ग्रहणेऽसि मनोर्मुने मन्त्रग्रहणमात्रेण विष्णुतुल्यो भवी नरः। मम वक्त्रम् सदा पातु ओम् दुर्गायै नमोऽन्तकः ओम् दुर्गेति कण्ठम् तु मन्त्रः पातु सदा मम। ओम् ह्रीम् श्रीमिति मन्त्रोऽयम् स्कन्धम् पातु निरन्तरम् ह्रीम् श्रीम् क्लीमिति पृष्ठम् च पातु मे सर्वतः सदा। ओम् ह्रीम् मे वक्षस्थले पातु हंसम् श्रीमिति सन्ततम् ऐं श्रीम् ह्रीम् पातु सर्वाङ्गम् स्वप्ने जागरणे सदा। प्राचाम् माम् पातु प्रकृतेः पातु वह्नौ च चण्डिका दक्षिणे भद्रकाली च नेरित्याम् च महेश्वरी। वारुण्याम् पातु वाराहि वायुव्याम् सर्वमङ्गला उत्तरे वैष्णवी पातु तथैशान्याम् शिव प्रिया। जलस्थले चान्तरिक्षे पातु माम् जगदम्बिका इति ते कथितम् वत्स कवचम् च सुदुर्लभम्। यस्मै कस्मै न दातव्यम् प्रवक्तव्यम् न कस्यचित् गुरुमभ्यर्च्य विधिवत् वस्त्रालङ्कार चन्दनैः। कवचम् धारयति अस्तु सोऽपि विष्णुर्न संशयाः स्नाने च सर्वतीर्थानाम् पृथिव्याश्च प्रदक्षिणे। यत्फलम् लभते लोकस्तदेतद्धारणे मुने पञ्चलक्षजपेनैव सिद्धमेतद्भवेद्ध्रुवम्। लोके च सिद्धकवचो नावसीदति सङ्कटे न तस्य मृत्युर्भवति जले वह्नो विसीज्वरे। जीवन्मुक्तो भवेत् सोऽपि सर्वसिद्धेश्वरीश्वरी यदि स्यात्सिद्धकवचो विष्णुतुल्यो भवेद्ध्रुवम्। इति श्री ब्रह्म वैवर्ती प्रकृति खंडांतर्गत दुर्गा कवचम संपूर्णम्।